इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका मुदिता वेतालः। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अवोचत् यत् रोजगार मेला यूनः सशक्तान् विधातुं विकसित भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति। तेन अद्य 150,000+ युवभ्यः नियुक्ति पत्राणि वितरितानि। अहमदाबाद विमान दुर्घटना विषये विमान दुर्घटना अनुसंधान ब्यूरो संस्थया प्रतिवेदने प्रोक्तं यत् विमाने कट ऑफ अभवत्, येन इंजिन इत्येतस्मिन् इंधनस्य अभावः जातः, दुर्घटना च अभवत्। अग्रिम अन्वेषणस्य मुख्यं केन्द्रम् एतदेव भविष्यति इति अपेक्षा अस्ति। भारत ऋतु विज्ञान विभागेन आगामिषु 4-5 दिवसेषु देशस्य मध्यभागेषु तत्समीपस्थेषु च वायव्यभागेषु महतीतः अत्यन्तां महतीपर्यन्तं वर्षा भविष्यति इति पूर्वानुमानं कृतम्। अपि च विम्बल्डन टेनिस क्रीडायां ईगा स्वियाटेक् अद्य रात्रौ लंडन नगरस्य सेंटर कोर्ट इति मध्ये महिला एकल वर्गे अमांडा अनिसिमोवा इत्यनया सह क्रीडिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अवोचत् यत् रोजगार मेला यूनः सशक्तान् विधातुं विकसित भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति। तेनोक्तं अद्य विश्वं स्वीकरोति यत् भारतस्य द्वे शक्ति वर्तेते, प्रथमा शक्तिः जनसांख्यिकी, अपरं च तदीयं लोकतन्त्रम्। प्रधानमन्त्री अद्य वीडियो कॉन्फ्रेंसिंग माध्यमेन विविधेषु प्राशासनिक विभागेषु 150,000+ युवभ्यः नियुक्तिपत्राणां वितरणस्य अनन्तरं रोजगार मेला इत्यस्मिन् कार्यक्रमे वदति स्म। नवनियुक्तेभ्यः वर्धापनानि यच्छन् श्रीमोदी अवोचत् यत् सर्वकारस्य रोजगार मेला उपक्रमेण लक्षशो युवानः केन्द्रसर्वकारे स्थायी नियुक्तयः प्राप्तवन्तः, राष्ट्रनिर्माणे महत्वपूर्णां भूमिकां निभालयन्ति च।
आज दुनिया मान रही है कि भारत के पास दो असीमित शक्तियां है, एक डेमोग्राफी, दूसरी डेमोक्रेसी, यानी सबसे बड़ी युवा आबादी और सबसे बड़ा लोकतंत्र। युवाओं का यह सामर्थ्य हमारी भारत के उज्जवल भविष्य की सबसे बड़ी पूंजी भी है और सबसे बड़ी गारंटी भी है, और हमारी सरकार इसी पूंजी को समृद्धि का सूत्र बनाने में दिन रात जुटी है।
प्रधानमन्त्रिणा देशे विकासमानानां स्टार्टअप नवाचार अनुसन्धानानां च समेधमानस्य इकोसिस्टम इत्यस्य अपि उल्लेखो विहितः, यत् हि देशस्य यूनां क्षमताः वर्धयति।
डिफेंस मैन्युफैक्चरिंग में भी भारत नए रिकॉर्ड्स बना रहा है। हमारा डिफेंस प्रोडक्शन 1,25,000 करोड़ रुपए से ऊपर पहुंच चुका है। लोकोमोटिव हो, रेल कोच हो, आज भारत इनका दुनिया के कई देशों में एक्सपोर्ट कर रहा है। हमारा ऑटोमोबाइल सेक्टर भी अभूतपूर्व ग्रोथ कर रहा है। बीते 5 साल में ही इस सेक्टर में करीब $40 बिलियन का FDI आया है।
निजी क्षेत्रे वृत्तेः नूतनानवसराणां सर्जने प्रधानमन्त्रिणा उक्तं यत् सद्यैव रोजगार इत्यनेन सम्बद्धा प्रोत्साहन योजना अनुमता। केन्द्रीय वित्तमन्त्री निर्मला सीतारमणः मेघालये 1,087 कोटि रूप्यकाणां नैकासां परियोजनां शिलान्यासम् उद्घाटनं च कृतवती। शिलांग स्थिते अन्ताराष्ट्रिय प्रदर्शन कला संस्कृति केन्द्रे लारिती इत्यत्र आयोजिते कार्यक्रमे तया मुख्यमन्त्रिणः कॉनराड संगमा इत्यस्य नेतृत्वे मेघालयस्य सतत विकासस्य साहसिक दृष्टिकोणस्य च प्रशंसा कृता। वित्तमन्त्रिणा उक्तं यत् मेघालयेन राज्येभ्यः निवेशाय विशेष साहाय्य रूपेण आबंटितानां 4,505,000 कोटि रूप्यकाणां पूर्णोपयोगः कृतः। केन्द्रीय मन्त्री अमित शाहः अवादीत् यत् प्रधानमन्त्री नरेन्द्र मोदी वर्यस्य विकसित भारतस्य स्वप्नः दक्षिण राज्यानां विकासेन एव साकारः भविष्यति। श्री शाहेन अद्य तिरुवनन्तपुरम नगरे पुथरिंकदम प्रांगणे भाजपा इति दलस्य राज्यस्तरीयोपवेशनं संबोधयता प्रोक्तं यत् केरल राज्यस्य उन्नतिः विकासश्च विकसित भारतस्य अभिन्नम् अंगं वर्तते। श्री शाहेन एतदपि प्रोक्तं यत् भ्रष्टाचार मुक्त शासनं प्रधानमन्त्री नरेन्द्र मोदी वर्यस्य मूल स्वप्नः अस्ति, यः केरल राज्यस्य विकासार्थं आवश्यकः वर्तते। छत्तीसगढ़स्य सुकमा जनपदे अद्य त्रयोविंशतिः माओवादिनः आत्मसमर्पणं कृतवन्तः। एतेषु माओवादिषु नव महिलाः सन्ति। जनपदस्य आरक्षी महानिरीक्षकः किरण चौहानः अवादीत् यत् एतेषु माओवादिषु 8,00,000+ ₹1,00,000 पुरस्कारस्य घोषणा आसीत्। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एयर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। अहमदाबाद विमान दुर्घटना विषये विमान दुर्घटना अनुसंधान ब्यूरो संस्थया गतरात्रौ प्रारंभिकं 15-पृष्ठात्मकं प्रतिवेदनं प्रकाशितम्। अहमदाबाद नगरे जून मासस्य 12 दिनांके घटितस्य एयर इंडिया ड्रीम लाइनर विमान दुर्घटनायाः प्रारंभिक अन्वीक्षण प्रतिवेदनं प्रकाशितमस्ति। तथा च अस्य प्रतिवेदनानुसारं विमानस्य उड्डयनानन्तरं कतिपयेषु सेकेण्ड् अनन्तरमेव विमानस्य इंजनद्वयं वायौ एव स्थगितम्। तदनन्तरं एषा दुर्घटना जाता। तस्मिन्नेव काले प्रतिवेदनात् पूर्वम् अस्मिन् विषये संशयाः उत्पद्यन्ते स्म, अधुना प्रतिवेदनस्य अनन्तरं तेषां पुष्टिः अभवत्। महत्वपूर्णम् अस्ति यत् कॉकपिट इत्यस्य स्वरमुद्रणे एकः विमानचालकः किमर्थम् इंजनम् इति स्थगितवान् इति पृच्छति श्रूयते, अपरः च विमानचालकः मया न कृतम् इति कथयति। तथ्यं तु एतत् यत् स्विच इति कथं कट ऑफ अभवत्, येन इंजन इत्येतस्मिन् इंधनस्य अभावः जातः, दुर्घटना च अभवत्। अग्रे अन्वेषणस्य मुख्यं केन्द्रम् एतत् एव भविष्यति इति अपेक्षा अस्ति। भारत ऋतु विज्ञान विभागेन आगामिषु 4-5 दिवसेषु देशस्य मध्यभागेषु तत्समीपस्थेषु च वायव्य भागेषु महतीतः अत्यन्तं महती पर्यन्तं वर्षा भविष्यति इति पूर्वानुमानं कृतमस्ति। विभागस्य अनुसारं पूर्वीय राजस्थानस्य मध्यप्रदेशस्य च एकान्तस्थानेषु अद्य प्रचण्ड वृष्टिः भविष्यति। ऋतुविभागेन उक्तं यत् अद्य असम, मेघालय, छत्तीसगढ़, तटीय कर्नाटक, गुजरात, हिमाचल प्रदेश, केरल, माहे, उत्तर प्रदेश, उत्तराखण्ड, पश्चिम राजस्थानेषु च अद्य एकान्तस्थानेषु अत्यधिक वृष्टिः भविष्यति। विम्बल्डन टेनिस क्रीडायां पञ्चवारं ग्रैंड स्लैम इत्युपाधिधारिका ईगा स्वियाटेक अद्य रात्रौ लंडन नगरस्य सेंटर कोर्ट इति मध्ये महिला एकलेती उपाध्यायी अमांडा अनिसिमोवा अत्यनया सह क्रीडिष्यति। एषा क्रीडा भारतीय मानक समयानुसारं रात्रौ 8:30 वादने आरप्स्यते। टेस्ट क्रिकेट क्रीडायां एंडरसन तेंदुलकर ट्रॉफीति क्रीडा स्पर्धायाः तृतीया टेस्ट क्रीडा भारत इंग्लैण्डयोः मध्ये लंडनस्य लॉर्ड्स क्रीडांगणे प्रचलति। श्रृंखलायाः तृतीया स्पर्धायां तृतीये दिने भारतेन प्रथमपाल्यां भोजनावकाशं यावत् चतुर्णां क्रीडकाणां हानौ 8:40,200 धावनांकाः अधिगताः इति वार्ताः।